एषा रेडियो नेपालः सम्प्रति समाचारः श्रूयन्ताम् प्रवाचकः उपेन्द्र दाहालः। प्रधानमन्त्री केपी शर्मा ओली कथयति कोरोना विषाणोः प्रभावकारी नियन्त्रण निरोधनयोः कृते सर्वकारेण आराष्टं विद्यमानेषु चिकित्सालयेषु प्राणवायुसहितानां शय्यानाम् आवश्यकोपकरणानां चिकित्सकानाञ्च व्यवस्था विधीयमाना वर्तते। सिंहप्रासादस्थिते प्रधानमन्त्री मन्त्रिपरिषदः कार्यालये ह्यः पदभार ग्रहणस्य पश्चात् प्रधानमन्त्री ओली उपप्रधानमन्त्रिणा सहितं मन्त्रिगणं नेपाल सर्वकारस्य उच्चपदस्थान कार्यकारिणः सर्वकारस्य सर्वान् निकायांच कोरोना विषाणोः प्रभावकारिणी उपचाराय औषधानां चिकित्सकानां उपकरणानां अन्येषां साधनानाञ्च न्यूनतां निवारयितुं निरदिशत। प्रधानमन्त्री ओली अवासत कोरोना विषाणोः कारणेन उत्पादनस्य क्षेत्रे सृष्टस्य प्रभावस्य न्यूनीकरणाय सर्वकारेण साधनस्रोतसां यथासम्भवं प्रभावकारि परिचालनं विधीयमानं वर्तते। प्रधानमन्त्री ओली वर्तमानायां स्वास्थ्य समस्यायाः जटिलावस्थायां रोगिणानां सेवायै परोपकारस्य सेवायाश्च भावयेन सक्रियाः भवितुं सर्वकारीयान् नैजांश सर्वान् चिकित्सालयान् अन्वरुणत। प्रधानमन्त्रिणा ओलिना देशस्य प्राणवायुद्योगान् पूर्णक्षमतया सञ्चाल्य रोगिणानाम् आवश्यकतायाः आधारेण प्रभावकारिरूपेण वितरणस्य प्रबन्धनं विधातुं च अनुरुद्धम्। प्रधानमन्त्री ओली मानव जातेरेव अस्तित्वं प्रतिकृत्य कोरोना विषाणो संक्रमणस्य बेलायं एतत् प्रपञ्चं निर्माय यः कोऽपि अनियमिततां करोति चेत् तं कठोरेण दण्डयितुं निरदिशत। प्रधानमन्त्रिणा ओलिना सर्वकारा देश जनते प्रति पूर्णनिष्ठया अग्रे प्रवर्धते इति प्रतिबद्धता व्यक्ता। तत्पूर्वं पूर्वेद्युरेव प्रधानमन्त्रिणा केपी शर्मा ओलिना पदगोपनीयतयः शपथः गृहीतः आसीत्। शीतल निवासवर्तिनी राष्ट्रपति भवने आयोजिते विशेष समारोहे राष्ट्रपतिः विद्यादेवी भण्डारी प्रधानमन्त्रिणम् ओलिनम् शपथम् अग्राहयत्। शपथ ग्रहण समारोहे उपराष्ट्रपतेः नन्दबहादुर पुन, प्रधान न्यायाधीशा चोलेन्द्र शमशेर जबरा, सभामुखा अग्निप्रसाद सापकोटा, राष्ट्रिय सभायाः अध्यक्ष गणेश प्रसाद तिमलसिन्हा, सांविधानिकांगानां प्रमुखा, राजनैतिक दलानां नेतारः, नेपालस्थिताः विभिन्न देशानां राजदूताः, प्रतिनिधयश्च उच्चपदस्थाः अधिकारिणश्च सहभागिनः आसन्। प्रधानमन्त्रिणा ह्य एव मन्त्रिणो नियुक्ताः सन्ति। नवीन मन्त्रिपरिषदि पूर्वमन्त्रिभिरेव निरन्तरता प्राप्ता वर्तते। शीतल निवासे आयोजिते समारोहे राष्ट्रपतिः भण्डारी नवनियुक्तम् उप प्रधानमन्त्रिणम् ईश्वर पोखरेलम् मन्त्रिणश्च शपथम् अग्राहयत्। समारोहे प्रधानमन्त्री ओली नवनियुक्तान् राज्यमन्त्रिणः शपथम् ग्राहितवान्। प्रधानमन्त्री केपी शर्मा ओली ललितपुरस्य गोदावरी स्थाने निर्मितम् अन्तर्राष्ट्रिय सम्मेलन केन्द्रम् उद्घाटयत्। प्रधानमन्त्रिणा ओलिना ह्य जुम प्रविधि माध्यमेन आयोजिते कार्यक्रमे सहस्रत्रयासन क्षमतायाः देशस्यैव विपुलतमं सभाभवनमेतत् उद्घाटितं वर्तते। तदवसरे प्रधानमन्त्री ओली देशं कोरोना संकटमुक्तं कारयितुं सम्बद्ध पक्षैः समन्वयं विधाय प्रभावकारी कार्यक्रमः चाल्यते इति भाषमाणः संक्रान्तानां जनानाम् उपचारे प्राण वायोः अभावं रोद्धुं देशस्य सर्वान् प्राणवायुद्योगान् पूर्णक्षमतया सञ्चालयितुं प्रयासः विधीयमानोऽस्तीति अज्ञापयत्। संचार सूचना प्रविधि मन्त्री पार्वत गुरूङ गदति कोरोना संक्रमणं निवारयितुं कोविड केन्द्रितां रणनीतिक योजनां निर्माय सर्वकारः अग्रे वर्धते। मन्त्री गुरूङ ह्य संचार सूचना प्रविधि मन्त्रालये पदभारं गृह्णन् प्रधानमन्त्रिणा केपी शर्मा ओलिना दृष्टां समृद्धेर यात्रां पूरयितुं सहयोगाय प्रतिबद्धतां व्यक्तवान्। मन्त्री गुरूङ विश्वस्मिन्नेव कोविड संकटस्य वर्तमानावस्थायां विगतस्य सर्वान् विषयान् विस्मृत्य सर्वैः एकीभूय संकटस्य निवारणाय बलम् प्रादात्। ह्य आराष्टम् अष्टसहस्रे विंशत्यधिक पञ्चशते च जनेषु कोरोना संक्रमणं पुष्टीभूतं वर्तते। ह्य चतुर्विंशत्यां घण्टासु विंशति सहस्राणाम् अष्टचत्वारिंशदधिक नवशतस्य च निदर्शनानां पीसीआर विधिना परीक्षणे विहिते अष्टसहस्रं सप्तषष्ट्यधिक शतचतुष्टयञ्च त्रिंशदधिक पञ्चशतस्य जनानां एन्टीजेन विधिना परीक्षणे विहिते त्रिपञ्चाशच्चेति कृत्वा समग्रतः अष्टसहस्रे विंशत्यधिक पञ्चशते च जनेषु कोरोना संक्रमणं पुष्टीभूतमिति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। ह्य अतिरिक्ताः 60,000 35,000 शतञ्च जना कोरोना संक्रमणात् मुक्ताः सन्ति। ह्य 3,102 जना कोरोना संक्रमणेन मृता। एतदनु ह्यस्तनावधि नेपाली संक्रमणेन मृतानां जनानां समग्र संख्या 64,69,660 प्राप्तास्ति। ह्यस्तनावधि आराष्ट्रं कोरोना विषाणो 1,07,000 षट्त्रिंशदधिक शतत्रयञ्च सक्रिय संक्रान्ता जना सन्तीति स्वास्थ्य जनसंख्या मन्त्रालयेन ज्ञापितं वर्तते। नेपाली कांग्रेस दलस्य सभापतिना शेरबहादुर देवाविदेन आराष्टम कोविड उनविंशतेः संक्रमणेन उग्र रूपग्रहणस्य विषम परिस्थितौ मित्र राष्ट्राणि अन्तर्राष्ट्रिय संघ संस्थाश्च सहयोगाय अनुरूद्धा सन्ति। सभापति देववा ह्य विज्ञप्तिम् प्रकाश्य एवम् अन्वरुणत्। असौ सम्भावितां जटिल परिस्थितिं ध्यात्वा सर्वेष् जनपदेष् प्राणवायुद्योगान् पीसीआर परीक्षण प्रयोगशालाश्च संस्थापयितुं तत्कालाय आवश्यक प्राणवायोः सघनोपचारशय्यानां टीकाकरण प्रवृत्तीनां औषधानाञ्च व्यवस्थापनाय च सर्वकारम् अभ्ययाचत। राष्ट्रिय मानवाधिकार आयोगेन कोरोना संक्रमणस्य वर्तमान जटिल परिस्थितौ सर्वेषां गभीर प्रकृतिकानां रोगिणां स्वास्थ्योपचारस्य व्यवस्थां विधातुं सर्वकारः अनुरुद्धो वर्तते। आयोगेन चिकित्सालयेषु प्राणवायुसहितानाम् अतिरिक्तानां शय्यानां व्यवस्थां कारयितुं प्राणवायोः उत्पादनस्य आपूर्तेश्च वर्धनाय प्रभावकारी कार्यं चालयितुं कोविड विरोधिनः द्वितीय चरणस्य टीकाकरणस्य तत्कालं व्यवस्थां कर्तुं च सर्वकारः अनुरुद्धो वर्तते। नेकपा एमाले दलस्य शीर्ष नेतृणां मध्ये दलाभ्यन्तरे श्रेष्ठस्य विवादस्य समाधानाय कार्यदलं संघटयितुं सहमति धृता वर्तते। सिंहप्रसादवर्तिनी प्रधानमन्त्री कार्यालय दलाध्यक्षस्य प्रधानमन्त्रिणश्च केपी शर्मा ओलिनः अपरनेतुः माधव कुमार नेपालस्य पक्षस्य च मध्ये इह सम्पन्ने विमर्शने दले श्रेष्ठस्य विवादस्य समाधानाय कार्यदलं संघटयितुं सहमति धृता अस्ति। उपवेशस्य पश्चात् पत्रकारैः सह एमाले दलस्य नेता भीमबहादुर रावलः अगदत् एकतां संस्थाप्य दलम् अग्रे वर्धयितुं गभीरेण विमृष्टम्। पञ्चसप्तत्यधिक द्विसहस्रतम विक्रमाब्दस्य ज्येष्ठ मासस्य तृतीय दिवसस्य पूर्वं विद्यमानस्य एमाले दलस्य स्थितिम् आधारमत्वा अग्रे वर्धनाय वार्ताभिहितेति ज्ञापयन् नेता रावल अवदत् कार्यदलं संघटयिष्यते। कार्यदलस्य सदस्यानां नामानि अध्यक्ष ओली नेता नेपालश्च निर्धारयिष्यतः। इति समाचारः।